सर्वेभ्यो नमस्काराः. अद्य सिद्धान्तकौमुद्याः अजन्तपुल्लिङ्गप्रकरणे पञ्चविंशः भागः, मार्च् मासस्य त्रयोविंशः दिनाङ्कः. येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं प्रच्यते. जी नमस्ते. क्वेश्चन? हाँ. ओह नो, आई अनम्यूटेड यू बिकॉज यू हैड रेज्ड योर हैंड. ओके, नो प्रॉब्लम. अस्तु, इकारान्तपुल्लिङ्गेषु स्मः. होप्फुली ऐल् बी एबल् टु फिनिश् इकारान्तस् टुडे. कण्ट् यु सी मै स्क्रीन्? रवि, हलो, हलो. यू कैन सी मै स्क्रीन? हाँ, इकारान्तपुल्लिङ्गाः विच होप्फुली विल कम्प्लीट टुडे. गतकक्षायां प्रधीशब्दः प्रकृष्टं प्रध्यायति इति विग्रहे, प्रध्यायति इति प्रधीः इति विग्रहे अयं धातुः ध्येय धातोः इकारः. तस्मात् सर्वत्र अजादिषु प्रत्ययेषु एरानेकाचो संयोगपूर्वस्य इति यणादेशो भवति. प्रकृष्टाधीः यस्य सः इति विग्रहे तु यणादेशः भवति एरनेकाचो इति. तदतिरिच्य नदीसंज्ञा प्रयुक्तानि कार्याण्यपि भवन्ति, यथा आण्नद्याः इति आडागमः, ह्रस्वनद्या कोनुट इति नुडागमः इत्यादीनि. उन्नीः ग्रामणीः इति शब्दद्वयम्, उन्नयति इति उन्नीः, ग्रामं नयति इति ग्रामणीः. अत्रापि इरनेकाचो संयोगपूर्वस्य इत्यनेन यणादेशो भवति. णी इति धातुः, णी प्रापणे इति धातुत्वात् यणादेशो भवति. अत्र विशेषः णी शब्दः इत्यस्मात् कारणात् ज्ञेनां नद्यां नीतः इति ज्ञेः स्थाने आमादेशो भवति. यद्यपि अस्य नदीसंज्ञा नास्ति, नदी आप् नीभ्रः इत्युक्तत्वात् नीशब्दस्य नीशब्दात् परस्य ङेः आमादेशो भवति. अतः केवलः नीशब्दः नयति इति नीः. अत्र तु एरनेकाचसंयोगपूर्वस्य इति अनादेशो न भवति, तत्र अनेकाचः इत्युक्तत्वात्. सिन्स् इट् सेस् अनेकाच् अण्ड् सिन्स् दिस् इस् हेज़् ओन्ली वन् अच् विच् इस् ईकार, देर् इस् नो यणादेश. इन् द अब्सेन्स् आफ् यणादेश you would have अचिष्ट धातु भुवां योर् इयङ् इति सूत्रेण इयङादेशः भवति. एवमेव सुश्री, यवक्री. अत्र श्री इत्यत्र शकाररेफयोः संयोगः विद्यते, यवक्री इत्यत्र ककाररेफयोः संयोगः. एः अनेकाचः असंयोगपूर्वस्य इति उक्तत्वात् संयोगपूर्वकत्वात् अत्रापि अनादेशः न भवति, अचिष्णधातुभ्रुवाम् इत्यनेन इयम् आदेशः. अत्र प्रश्नः, उन्नी इत्यत्र नकारद्वयं श्रूयते, नकारद्वयस्य संयोगः विद्यते. जस्ट् लैक् वि हेव् शकार अण्ड् रेफ हियर्, वि हेव् अ नकार अण्ड् नकार हियर्. सो हौ डु वि डु यणादेश फार् उन्नी? शुडन्ट् वि प्रिवेण्ट् यन् अण्ड् डु इयम् आदेश, सिन्स् इट् इस् संयोगपूर्वक. इकारः संयोगपूर्वकः न भवेत् इति यरनेकाचो संयोगपूर्वस्य इति अणादेशस्य नियमः अत्र तु संयोगपूर्वकत्वम् अस्ति इकारात् प्राक् नकारद्वयसंयोगः विद्यते कथं तर्हि एरनेकाचः इत्यनेन यणादेशः वसुजी It is not ekach. Unni is still anekach. Huh? Why is it not a sanyoga? I mean, it is a sanyoga definitely, but why does it not? Sanyoga purva. Exactly. Dhatu eva sanyoga purva. Only when the sanyoga entirely belongs to the dhatu, then yan is prevented. Like in Sushri, Shri itself is the dhatu, or Shri is the dhatu. Yava kri ityatra kri iti dhatu. So the sanyoga, both letters of the sanyoga belong to the dhatu. In such cases, there is no yan. But in this case, like in unni, where one letter of the sanyoga belongs to the upasarga and the other letter belongs to the dhatu, the sanyoga is not dhatvavayava. The vritti says dhatvavayava sanyoga purvako nabhavati yaha ikaraha. Since the sanyoga does not belong to dhatvavayava, is not a dhatvavayava, we can still apply eranekatva sanyoga purvasya. Anekaj applies to the entire anga, whereas the sanyoga applies to the dhatu. Tataha, kinchana vartikam vidyate, gatikaraketara purva padasya yan neshyate. Iranekacho sanyoga purvasya yatenena yan vidhiyate. Saha, gati purva padasya, karaka purva padasya va bhavati. यथा उन्नी इत्यत्र भवति उन्नयति इत्यत्र उत् इति प्रादेः गतिसंज्ञा विद्यते गतिश्च इति सूत्रेण ग्रामं नयति इति ग्रामणीः इत्यत्र तु कारकत्वम् अस्ति ग्रामम् इत्यस्य कर्मकारकत्वम् अस्ति अतः यत्र गतिपूर्वकत्वं कारकपूर्वकत्वं वा अस्ति तत्र यण् भवति यत्र तादृशं नास्ति अर्थात् गतिभिन्नं कारकभिन्नञ्च उपपदं यदि अस्ति तदा यणादेशो न भवति इति वार्तिकस्य अर्थः उदाहरणं दीयते शुद्धधियौ परमधियौ शुद्धाधीः यस्य सः शुद्धधीः परमाधीः यस्य सः परमधीः अत्र शुद्ध इत्यस्य धी शब्दस्य च विशेषणविशेष्यभावसम्बन्धः शुद्ध इस् एन् अब्जेक्टिव् टु धी एण्ड् देर् इस् नो कारकसम्बन्ध यु शुड् रियलैज़् दट् कारकसम्बन्ध इस् द सम्बन्ध बिट्वीन् संथिङ्ग् एण्ड् अ क्रिया ओके for example, like gramam nayati, where nayati is a kriya and grama is related to the kriya as an object. That is why we call it a karmakaraka. But in shuddha and dhi is not a kriya. Shuddha is a visheshana to dhi and it does not have a karaka sambandha. And it is obviously not a gati. Gati samya, in this case you can say for upasarga. Since it is not an upasarga, it has neither gati samya nor karaka samya. Similarly with paramadhihi asya saha. Tasmat, shuddhadhi paramadhi ityatra, yadyapi asanyoga purvakatvam asti, anekaj angatvam api asti, tathapi yan na bhavati. Kimarthan na bhavati, anena vartikena nishiddhatva. Gati karaka itara purvapadasya. Gati purvapadasya bhavati, karaka purvapadasya bhavati, taditara purvapadasya yan neshyate, yan na bhavati. Iti vartikasya arthaha. एतत्तु अङ्गीकृतम् अङ्गीकृत्य पुनः प्रश्नः उत्थाप्यते दीक्षितैः कथं तर्हि दुर्धियः वृश्चिकभियः इत्यादि एते प्रयोगाः श्रूयन्ते दुर्धीः दुर्धियौ दुर्धियः वृश्चिकभीः वृश्चिकभियौ वृश्चिकभियः अत्र किमस्ति यण इयङादेशः कृतः अस्ति यण् नास्ति इयङादेशः कृतः किमर्थं यण् न कृतः इति प्रश्नः यण् अकरणार्थम् अस्ति एकमेव वार्तिकं गतिकारके इतरपूर्वपदस्य अत्र तु गतिपूर्वपदत्वमस्ति कारकपूर्वपदत्वमेव अस्ति कुतो नयण् इति प्रश्नः कथं गतिपूर्वकत्वं दुस्थिता धीः यस्य सः इति विग्रहः तत्र दुर् इत्यस्य धी इत्यनेन गतिश्च इति सूत्रेण प्रादिः अयम् अस्य गतिसंज्ञा विद्यते एवं वृश्चिकात् भीः वृश्चिकभीः इति उच्यते अत्र भयं वृश्चिकात् अपादानकारकत्वम् अस्ति वृश्चिकस्य भयस्य च कारकसम्बन्धः अस्ति तस्मात् इदं वृश्चिकभीः इति कारकपूर्वपदं दुर्धियः इति गतिपूर्वपदम् अत्र कुतो नयन् इति प्रश्नः वै शुड् वि नाट् डू यन् हियर् वै हेस् इयन् बीन् डन् हियर् सिन्स् दिस् हेस् गतिसंज्ञा एण्ड् कारकसंज्ञा दे शुड् बि यन् एण्ड् नाट् इयम् इस् द डौट् रेस्ड् तदा उत्तरं किं दीयते ओन्ली वे टु आन्सर् दिस् इस् देर् इस् नो गतिसंज्ञा इट् हेस् टु प्रूव् दट् देर् इस् नो गतिसंज्ञा एण्ड् देर् इस् नो कारकसंज्ञा हौ डु वि डू दट् उच्यते दुःस्थिताधीः येषाम् इति विग्रहे दुर् इत्यस्य धीशब्दं प्रति गतित्वमेव नास्ति सेस् इवन् दो दुर् इस् अ प्रादि इन् द विग्रह वि आर् यूसिङ्ग् इस् दुःस्थिताधीः येषां ते दुर्धियः इन् दट् दुर् द पार्टिकल् दुर् डस् नाट् हेव् गतिसंज्ञा वित् रेस्पेक्ट् टु धी Why? As we discussed already, dhi is not a kriya. Kriya yoge, pradayaha kriya yoge, gati samyaha, upasarga samyascha syuhu. That is sutra. Only where there is a kriya yoga, you can give a gati samya. In dusthita dhihi, for the upasarga dur and for the word dhi, there is no kriyanvaya. That is, dhi is not a kriya. Therefore, dur does not have gati samya towards dhi. That is why it is not, but you cannot say that Dur does not have Gati Samya at all. Right? We will see the Bala Manorama which makes it a bit clear. Gatitvam eva nastiti. So he takes the Pratika from Mula where he says Gatitvam eva nasti. Upasargah Kriyayoge Gatishcha iti Pradinam Kriyayoge Gatyupasarga Samye Vihite. Right? So by Upasargah Kriyayoge and Gatishcha, the samya which was given was one is gati samya and the upasarga samya for pradis, prapara, apasam, etc. Kriya yoga when associated with a kriya. Dhi shabdascha buddhi guna vachi, natu kriya vachi. The word dhihi, dhihi ityase buddhihi ityartha, athava buddhehe guna. Dhyayati iti dhihi, that which can meditate, think is called dhihi. Okay, so that refers to a quality of the intellect and not to any kriya. Dhi shabdascha buddhi guna vachi natu kriya vachi. Ataha na tam prati duraha gatitvam. Therefore, dur does not have gati samya with reference to dhi shabda. Okay. Iti gati purvakatva bhavat na atra yanna. Since this is not gati purvaka, since the vastika says gatikara ketara purva padanam yan neshyate, we cannot do yan here, kintu yan eva ityartha. But the question, one more question which arises is, it's okay that dhi is not a kriya and that is all fine, but in the vigraha you have dusthita, sthita sthadhatohu nishpannaha, that is a kriya vachi. When you are saying dusthita, the sthadhatu which has been used is a kriyavachi. So with, when you consider dur with stha, dur does have gati samya. Stha dhatu ho asti, kriya yogattvam asti, tena dur ityasya gati samya asti. So what if dhi is not an action word? Stha, sthita ityatra yaha sthadhatu ho, satu kriyavachi eva. So therefore, it does have gati samya. How do you claim that it does not have gati samya? Is the next question raised. तदा उच्यते यत् क्रियायुक्ताः प्रादयः तं प्रत्येव गत्युपसर्गसंज्ञाः देयर् शुड् बि अ विसर्ग हियर् सो द थियरी इस् यत् क्रियायुक्ताः प्रादयः फार् एनी प्रादि वाट् एवर् इस् द क्रिया असोसियेटेड् वित् इट् तं प्रत्येव गत्युपसर्गसंज्ञा सो द गतिसंज्ञा आर् द उपसर्गसंज्ञा विल् बि वित् रेस्पेक्ट् टु दट् धातु ओन्ली just because there is kriya yoga, you cannot say dur has a gati samya always. No, how it should be told is dusthita ityatra stha dhatum prati dur ityasya gatitvam asti. So dur has gati samya with reference to stha and not with reference to any other word. So dur ityasya stha dhatum prati gatitvam asti natu dhihi iti shabdam prati. So dur does not have gati samya with reference to dhi. It has gati samya only with reference to stha. Yat kriya yuktah pradayah tam pratyeva gatyupasarga samyah. Right? So therefore it is not gati with respect to dhi. Gati purvakatvam nasti atha yan nishidhyate yangeva kriyate. Clear? नेक्स्ट अग्रिमः प्रश्नः वृश्चिकभियः इत्यत्र कथम् वृश्चिकशब्दस्य बुद्धिकृतम् अपादानत्वं नेह विवक्षितम्. सो ही सेज़ वी आर सेइंग वृश्चिका हैज अपादानकारकत्व विद रिस्पेक्ट टू भी वृश्चिकात् भीः वृश्चिकभिः. सो ही सेज़ द अपादानत्वं इज नॉट विवक्षितम्. There is one standard rule, golden rule for karakas, vivakshatah karakani bhavanti. All karakas depend on vivaksha. Vivaksha means vaktuhu iccha vivaksha. Karakas always depend on what the speaker is trying to convey. For example, if I am saying Ramaha vanam gacchati, mama vivaksha asti Ramaha gamanasya karta, vanam gamanasya karma, iti mama vivaksha. So that is what I intend to convey. I intend to convey Rama as the karta for the kriya gamana and vana as the karma for gamana. That is why Rama gets kartrakaraka and vana gets karmakaraka. Okay. There is also a case where if there is no vivaksha, then you can easily say that I do not want it to be that karaka. Okay. And it does not mean to say I can convey my meaning with it. I mean, when I am saying Ramaha vanam gacchati, the meaning which I intend can be conveyed only if Rama is kartru and vana is karma. Okay? But there are cases where I might not intend to use a karaka. Because I might not want karakatva for it. Just like in this case, vrishchikat bhihi. So the intention is vrishchika apadanakam bhayam. Okay? So, to understand this buddhikritam apadanatvam, we need to go into the karaka prakarana. Okay. There is apadana samya, this is a technical samya, and there is something called buddhikrita apadanatvam. So what Dikshitar means in this in brief is that apadanatva itself is not in the intention of the speaker. The speaker does not wish to convey apadanatvam. Then what do we do? There is sambandha, which is a substitute for everything. If I do not want to convey apadanattam, I can say it's only vrishchikasya bhihi. Some bhaya which is related to the vrishchika. If my intention is to specify what kind of that sambandha is, then I'll have to go to apadanattva. If I generally say it is something related to vrishchika, then it need not be vrishchikat bhihi. It can be vrishchikasya bhihi. Some fear which is related to the vrishchika. In that case, apadana karaka is not my vivaksha. I do not intend to use apadana karaka. So, yadi karakatvam na vivakshyate, tada gati karaketara purvapadana yad neshyate ityanena yanaha nishidhatva iyam bhavati. Iti ekam samadhanam. The first samadhana he offers is this. Vivakshataha karakani bhavanti iti bhashya uktam. Atra apadanatvam na vivakshitam. To convey apadanatva is not the intention of the speaker. That is why there is no karaka. Is one thing. Or vrishchika sambandhini bhihi vrishchika bhihi iti uttarapada lopahava. He says there is one more samadhana which can be told, where the previous vigraha we had was vrishchikat bhihi panchami tatpurushaha tanmastu vrishchika sambandhini bhihi iti samasaha karmadharayaha yatha shakapriyaha parthivaha shakapartivaha देवपूजकः ब्राह्मणः देवब्राह्मणः इत्यादीनि उत्तरपदलोपः इति उच्यते. कर्मधारयसमासे उत्तरपद लोपः अथवा मध्यमपदलोपी समासः इत्यपि उच्यते. सो देर् इस् वन् समास वन् पर्टिक्युलर् समास विच् इस् काल्ड् मध्यमलोपी समास इन् जनरल् पार्लेन्स् एण्ड् उत्तरपदलोप इन् टेक्निकल् पार्लेन्स्. An example for that is Shakapriyaha Parthivaha. A Parthiva, a king who likes Shaka, vegetables very much, he will be called Shakaparthivaha, where you are taking away that Priya. The middle word Priya gets deleted. So you have Shakapartiva. Okay. So similarly here what we do is Vrishchika Sambandhini Bhihi. It is not Vrishchikat Bhihi. Only if you have Vrishchikat Bhihi, Tatraiva Apadanakarakatvam Bhavati. वृश्चिकसम्बन्धिनी भीः इत्यत्र कारकत्वं नास्ति. देर् इस् नो कारक हियर्. यु आर् डिलीटिङ्ग् द मिडल् वर्ड् विच् इस् सम्बन्धिनी एण्ड् वि आर् सेयिङ्ग् वृश्चिकभीः. सो इफ् दिस् इस् द विग्रह कारकत्वं नास्ति इत्यतः यणः निषेधः. ओके, सो हौ डु वि प्रिवेण्ट् यण् इन् दिस्? वि कीप् द विग्रह, ऐ मीन् वि चेञ्ज् द, वि हव् टु चेञ्ज् द विग्रह. इट् इस् नाट् वृश्चिकात् भीः. वि इदर् मेक् ए षष्ठी तत्पुरुषसमास एस् वृश्चिकस्य भीः or a madhyama pada lopi samasa as vrishchika sambandhini bhihi. By both means what is being achieved is that the karakatva for vrishchika is being removed. Since it is not a karaka, there will be no yand. So durdhiyaha ityapi sadhu, vrishchika bhiyaha ityapi sadhu. Any questions? अग्रे सरामः. सुष्ठुध्यायति इति सुधीः. सुधीशब्दः ईकारान्तः पुल्लिङ्गः सुधीशब्दः. कः विग्रहः? सुष्ठुध्यायति, यः सम्यक् ध्यायति सः सुधीः, पण्डित इत्यर्थः. सुध्युपास्यः, सुधीभिः उपास्यः इत्यत्र अयमेव शब्दः. सुधीः, सुधी सुप्रत्यये कृते ससजुषोरुः इत्यनेन ऋत्वं खर्वसानयोर्विसर्जनीयः इत्यनेन विसर्गः सुधीः. सुधी औ इत्यस्ति. किं भवेत्? अयं धातुः एः ईकारान्तः धातुः असंयोगपूर्वकः अनेकाच् अङ्गम्. एरे एः अनेकाचः असंयोगपूर्वस्य इति उक्तत्वात् तेन सूत्रेण यण् भवेत्. यु शुड् एक्चुलि गेट् यण् यूसिङ्ग् एरनेकाचो संयोगपूर्वस्य. किन्तु सूत्रं वर्तते अजादिषु प्रत्ययेषु एरनेकाचो संयोगपूर्वस्य इति यणि प्राप्ते, यणादेशः प्राप्तः, किन्तु न भूसुधियोः इति निषेधः. कोऽर्थः? पदद्वयं न भूसुधियोः. इणो यण् इति सूत्रात् यण् इति वर्तते. ओत्सुपि इति सूत्रात् सुपि. अचिष्टधातुभ्रुवां युवोरियं वङौ इति सूत्रात् अचि इति अनुवृत्तिः. एतयोः भू सुधी इत्यनयोः शब्दयोः यण् न स्यात्. यणादेशः न भवति. अचि सुपि अजादौ सुप्रत्यये परे, अजादौ सुप्रत्यये परे भूशब्दस्य सुधीशब्दस्य च यण् न भवति इति सूत्रार्थः. तेन सुधी औ स्थिते अजिष्णुधातुभ्रुवाम् इत्यनेन यणादेशे सुधियौ सुधियः, सुधीः सुधियौ सुधियः इत्यादीनि रूपाणि. इट्स् अ सिम्पल् डिरेक्ट् यण् निषेध फार् द पर्टिक्युलर् वर्ड्. तत्र गतिकारकेतरपूर्वपदस्य इत्यत्र तु साक्षात् शब्दः न उद्धृतः. इट् इस् नाट् फार् अ पर्टिक्युलर् शब्द. एनी शब्द विच् साटिस्फैस् द कण्डीशन्स् विल् गेट् निषेध. बट् दिस् इस् ओन्ली फार् स्पेसिफिक् वर्ड्स्. वन् इस् भू अण्ड् अदर् इस् सुधी. तर्हि रूपाणि कथं भवन्ति? सुधीः सुधियौ सुधियः. हे सुधीः, अस्य नदी संज्ञा नास्ति अतः तत्प्रयुक्तानि कार्याण्यपि न भवन्ति. हे सुधियौ हे सुधियः, सर्वत्र नभूसुधियोः इति यण् निषेधात् अचिष्णुधातुभ्रुवाम् इत्यनेन इयङ् आदेशो भवति. सो वेर् एवर् दर् इस् एन् अजादि प्रत्यय देर् विल् बि इयङ् आदेश. रैट्? सुधियि सुधियां सर्वत्र तथैव। So the next shabda is, there are a few more shabdas actually here. There are six different types in Ikaranta Pullingas, as we will see at the end of this lesson. Now he goes on and sees where there is some special karya or there is some deviation from the standard form. We have already studied all the standard forms which are possible. Now there are specific shabdas where there could be some variation. तादृशम् उदाहरणं भवति सखायम् इच्छति सखीयति सखायम् इकारान्तः पुल्लिङ्गः सखीशब्दः तस्य द्वितीयाविभक्तौ एकवचनं सखायम् इति रूपं कथं भवति हौ डु वि डिरैव् सखायम् डस् एनीबडी रिमेम्बर् द प्रक्रिया आफ् सखीशब्द How do we get guna? You have sakhi and right? If we get guna, okay, let's forget the sutra. What will we get if we do guna? What is the guna for ikara? Ikara se guna to na kim bhavati? So you have an option between sakhe, correct. Sakhe am. Ayadeshe kute kim bhavati? What should be the rupa then? Kim bhavati? Now tell. Ekarad achi pare. Kaha adeshaha? Ai adesha. So the rupa should be sakhayam. No. If we do guna, we do get sakhayam. So guna is not the answer. So how do we do? There is an ayadesha here, as you can see, right? Sakhayam. We ended up with sakhayam. So what is, which is correct, perfectly correct. So we need HOA Vayavaha. But what should be the sthani to get I as the adesha? If I is the adesha, you will have A. Au. Au would get Av. How do you get I? No. O would be Av. So what should be the letter? Av will give you Av. Vanta desha. Ay. Yanta desha. O Av will give Vanta desha. So remove that. You have A and I. A gives Aya desha. I give not out. How do you, what is the adesha for out? How should get av? What should I get? ay, which is what we need. So we need an aikara before to get an ayadesha. So it should be sakhai. How do you get I from E? It's very simple. I mean, this is how we should think. Like, even if we don't know the sutta, this is how, as we go on, we think. I. How to convert E to I? If we need A, we can get from Ikara by doing Guna. Ikarasya gune krate ekaraha bhavati. Vriddhi. Ikarasya vriddhau kratayam aikaraha bhavati. So that is the prakriya. We have sakhi. Vriddhi bhavati tataha ayadesha. Kim sutram? That is prashna. Tavadeva. Kena sutrena vriddhi. But you don't have H. H ipare akarasya vriddhi bhavati. You have neither an H following nor an... This is something special for Sakhi Shabda. Okay. Vasuji. Mm-hmm. Sarvanamasthane cha sambuddhau kahartha. Nantasya upadhayaha dirkhasya dasambuddhau sarvanamasthane cha. So it is concerned with nakarantas. What do we have here? Atra kim bhavati? Anybody? Okay. Not me. Okay. Ravichandran ji says anang sau. Anang sau. Supratyaya pareva anangadeshaha. So how do we get sakhayam? Ha. Yes. Hema got it finally. Achoyaniti. Achaha iti niti cha pratyaye pare. So if there's an ach, a oval, which is followed by a nit or a nit pratyaya, then there will be vritti. Okay. Ajantadanga iti niti cha pratyaye pare vritti hi bhavati. Kintu am pratyaye itvam api nasti, nitvam api nasti. Am is neither nit nor nit. Tarhi katham vritti hi. Hope you understood the question. I mean, you're all correct. Coming back, it is correct, but there's just one more step. Sakhayam iti rupam asti. Katham bhavati ayadeshaha apekshate. Sakhai am iti sthite ayadeshe krute. Sakhayam. Aitvam katham. Sakhi ityasmat vriddhau krutayam aitvam bhavati. Vriddhihi bhavati achoyaniti iti sutrena. Okay. Kintu achoyaniti iti sutrartha kaha. Ajantangasya. Niti niti cha pratyaye pare vriddhihi. Am iti pratyaye nyakarasyapi ittvam nasti, nakarasyapi ittvam nasti. Katham achoyaniti ityasya pravrittihi. Masuji? Exactly. Sakhyuhu asambuddhau. Sutrarthakaha. Sakhyurangat param sambuddhivarjam sarvanamasthanam nidvat syat. So, any... Sarvanamasthana, other than Sambuddhi, which follows as Sakhi Shabda. Sakhyuhu Angat Param, Sambuddhivarjam Sarvanamasthanam Nidvad Syat. Tena Nidvad Bhavaha Bhavati. Yada Nit Bhavati, Tada Achoyaniti Ittanena Vriddhihi. Vriddhau Kritayam, Echo Yavayavaha Ittanena Ayadeshe Sakhayam Iti Bhavati. Okay. So all this was out of context because we are not dealing with Sakhi Shabda. But we still need the recap. Why? We will see. Sakhayam icchati. Tataha kvipu allopa yalopau. Iti dikshitaihi uktam. Kaha arthaha. Sakhi shabdat. Sakhayam icchati. Atmanaha icchati. He who wants a friend for himself. Like we studied. Kumarim atmanaha icchati. Kumariyati. Putram atmanaha icchati. Putriyati. Evam. Sakhayam atmanaha icchati. Ittyarthe. Supatmanah kyach iti sutrena kyach pratyaha kriyate. Sakhi shabdat kyach pratyaha kakara chakarasya chakarayohu itsamya vidyate yakaraha shishyate. Ya iti shishyate. Sakhi ya tisthite akrit sarvadhatukayor dirkaha इति सूत्रेण दीर्घः सखीय इति भवति। अयम् इदानीं धातुः सनाद्यन्ताधातवः इत्यनेन अस्य धातुसंज्ञा विद्यते। अत एव सखीयति, सखीयतः, सखीयन्ति इत्यादि पठति पठतः पठन्ति इतिवद् रूपाणि। किन्तु वयमिदानीं प्रातिपदिकेषु स्मः, तर्हि किं करणीयं? सखीय starting us here. Right. सखायम् आत्मनः इच्छति, यथा पुत्रीयति कुमारीयति तथा सखीयति। सखिशब्दात् सुपात्मनः क्यच् इत्यनेन क्यच् प्रत्ययः। क्यच् प्रत्यये कृते अकृत् सार्वधातुकयोर्दीर्घः इति सूत्रेण दीर्घः क्रियते। सखीय इत्ययं धातुः सनाद्यन्ताधातवः इत्यनेन अस्य धातुसंज्ञा विद्यते। अत एव सखीयति, सखीयतः, सखीयन्ति इत्यादीनि रूपाणि। बट् वि डु नाट् वाण्ट् ए धातु, वि नीड् टु कम् बेक् टु अ प्रातिपदिका। तदा किं करणीयं? ततः क्विप्, सखीय इति धातोः क्विप् च इति सूत्रेण क्विप् प्रत्ययः क्रियते। कर्त्रर्थे क्विप् प्रत्ययः। सखीय व् इत्यस्ति, वकार एव शिष्यते, ककारस्य पकारस्य च इत्संज्ञा विद्यते। सखीय व् इति स्थिते, अत्र अकारस्य सखीय इति अन्ते यः अकारः तस्य अतोलोपः इति लोपः क्रियते। सखीय व् यकारस्य लोपोव्योर्वलि, यकारवकारयोः वलिपले लोपः इत्यनेन यलोपः। सखी व् इत्यस्ति। अल्लोपस्य स्थानिवत्वात् यणि प्राप्ते, अत्र कश्चन प्रश्नः उद्भाव्यते दीक्षितैः। अतोलोपः इत्यनेन अकारलोपः कृतः, ततः लोपोव्योर्वलि इति वकारलोपः कृतः। इदानीम् अल्लोपः स्थानिवद्वेन आनीयते। इफ् होप् यु रिमेम्बर् स्थानिवद्भाव, यु स्पेण्ट् अ लाट् आफ् टैम् आन् इट् इन् सन्धिप्रकरण। स्थानिवदादेशः अनल्विधौ, आदेशः स्थानिवद्भवति, न तु स्थान्यलाश्रयविधौ। यदि स्थानी एक एव अल् भवति तदा स्थानिवद्भावः नास्ति इति सूत्रार्थः। ततः अपरं सूत्रं विद्यते, अचः परस्मिन् पूर्वविधौ, परनिमित्तः अचादेशः स्थानिवत् स्यात्, स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। अत्र पश्यन्तु, अजादेशः नाम अकारस्य लोपः, अल्लोपः, द अकार विच् वि डिलीटेड् हियर् इस् द अजादेश। परनिमित्तः, अतोलोपः इत्यस्य निमित्तं भवति प्रत्ययः, प्रत्ययन्निमित्तीकृत्य अल्लोपः कृतः। परनिमित्तः अजादेशः अकारलोपः स्थानिवत् स्यात्, कदा? स्थानिभूताद् अचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। सो नौ वी हेव् एन् ईकार हियर्, अस्यूम् आर् इमेजिन् दट् देर् इस् एन् अकार हियर्। ओके, अकारः यः लुप्तः स्तः स्थानिवद्भावेन आनीयते। वाट् वुड् हेपन्? इको एणचि इत्यनेन एणादेशः स्यात्। If this akara were present here, okay, forget the yakara has already been deleted. So if we bring this akara by sthanivad bhava, sakhi a iti bhavati. Sakhi a iti sthite iko yanachi ittenena yanadeshaha prapnoti. Right? Allopasya sthanivatvat paranimittaha pratyanimittaha ajadeshaha akarasya loparupaha adeshaha sthanivad bhavati. Sthanibhutad asaha akarat पूर्वत्वेन दृष्टस्य ईकारस्य विधौ कर्तव्ये। सो इफ् यु विश् टु डू समथिङ्ग् फार् ईकार, the allopa akara can be brought by sthanivad bhava. If there is sthanivad bhava, there would be yanadesha. Iko yanasi ityanena yanadesha syat. Kim karaniyam? Chet kvo luptam na sthanivat iti vartikam. Orthaha kvip pratyaya parakha lopaha na sthanivat. Atra kvip pratyayam nimitti krityaiva lopah krutaha. The akara was deleted because of the quip pratyaya. So this vartika says, kvau luptam, if you delete something using quip as the nimitta, it cannot be brought back by sthanivat bhava. Kvau luptam na sthanivat. Iti vartikam. Therefore, there is no sthanivat bhava here. We start with kvau luptam na sthanivat. So we saw that there would be, if there is a sthanivat bhava, there is a problem that there would be yanadesha. So we prevent sthanivat bhava by the vartika kvau luptam na sthanivat. Kvip pratyaya parakaha lopaha sthanivan na bhavati. Wherever we delete something using kvip as the nimitta, it cannot be brought back by sthanivat bhava. Atrapi akaraha kvip pratyayam nimitti krutya luptaha tasmat sthanivat bhavah nasti. So since there is no sthanivat bhava, you have sakhi v ityasti vakarasya veraprutasya ityanena lope sakhi iti pratipadikam. Now sakhi is an ikaranta pullinga shabda. What is the meaning? Sakhayam ichchati, he who would desire to have a friend is called sakhihi. Not sakhihi, it will be called sakha. I'm sorry. Sakhi ityasti अस्य कथम रूपाणि भवन्ति इति प्रश्नः. हेलो सखी इति प्रातिपदिकम् इकारान्तः पुल्लिङ्गः सखी शब्दः कोऽर्थः सखायं यः इच्छति ही हू डिज़ायर टु हाव अ फ्रेंड इज कॉल्ड सखी दट इज द प्रातिपदिक अस्य रूपाणि कथं भवन्ति इति प्रश्नः सखी सु इति स्थिते किं भवति एकदेश विकृतस्य अनन्यतया अनङ्मित्वे टु रिमेम्बर सखी शब्द द रूपा इज सखा सखायो सखायः Sakha was anangsau ityanena sakhi su iti sthite. Hello. Thank you.